सर्वेभ्यः अस्माकं भाषितसंस्कृतवर्गे सर्वेषां सुस्वागतम्. वयं प्रार्थनां कुर्मः. वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी, विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. द्वितीयदीक्षायां द्वितीयभागः इति पुस्तके विद्यमानपाठः कर्मणि प्रयोगाः इति, तत्र लट्लकारविषये यः पाठः अस्ति सः समाप्तः, समाप्तप्रायः अस्ति. एकः अभ्यासः अवशिष्टः अस्ति. अग्रे लङ्लकारस्य विषये भवति. अत्र सन्देहः अस्ति, पृच्छन्तु नो चेत् पाठं प्रति गच्छामि.
मदे अस्ति, भावप्रयोगे नास्ति, वाक्ये एव भाविप्रयोगे नास्ति सन्देहः. कर्तरिवाक्ये, हा कर्तरिवाक्ये यदा प्रथमायां मिश्रणं भवति, कर्तारौ द्वयं सः, उदाहरणं बालिके बालकः च, तत्र क्रियापदं किं रूपं स्वीकरोति महोदय?
क्रीडितः गच्छति, गच्छति इति अपि स्वीकर्तुं शक्नुमः, गच्छतः इति वक्तुं शक्नुमः.
अच्छा, बालिके द्वयमपि साधु, सो बालिके बालिके बालकः, सो इट् डस् नाट् टेक् द लास्ट् रूपं, नो, इट् केन् बि बोत्, बालके प्रथमा एण्ड् देन् बालिके
गच्छतः द्वयमपि साधु.
हा, सो बालिके
बालकः गच्छन्ति इति,
गच्छन्ति अपि समानं वा, शुद्धं वा?
गच्छन्ति इति वदामः, गच्छति इति वदामः. गच्छन्ति बालिके च बालकः गच्छन्ति अथवा गच्छति इति वदामः.
ओके 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 ओके, सो नाट् द्विवचनं, नो, वी हैव टु यूज़ प्लूरल् एण्ड् बहुवचनं एण्ड्
सामान्यतया चकारस्य बालिके च बालकः सामान्य गच्छति इति वदामश्चेत् समीचीनं, गच्छन्ति इति वदामश्चेत् समीचीनं, गच्छतः इति वदामश्चेत् निश्लेहः भवति अत्र. वदामश्चेत् प्रत्येकं चकारः बालिके गच्छन्ति इति वक्तव्यं
बहुवचनेन. धन्यवादः महोदय.
महोदय, पेज् 463 एतत् वाक्यं पुत्रैः पितरौ, शिष्यैः गुरवः, युवभिः वृद्धाः च आद्रियन्ते. पुत्रैः पितरौ, पितरौ कर्मपदं द्विवचने अस्ति, आद्रियन्ते शुड् बि आद्रियेते,
स्वीकरणे
बिकास् द अदर् टु आर् इन् बहुवचनम्, इट् विल् गो वित् दट् रैट्.
बहुवचने अस्ति सामान्यतः सर्वं बहुवचने, तत्र गुरवः वृद्धाः
बहुवचने अस्ति,
बहुवचने स्तः इति कृत्वा तत्र बहुवचनप्रयोगः.
धन्यवादः.
महोदय, भोजनं वस्त्रम् आवासः तत्र प्राप्यन्ते भवति न, प्राप्यते कथं भवति? त्रीणि पदानि सन्ति न प्रथमायां?
न सर्वे न तादृशं नास्ति. अत्र सर्वैः नागरिकैः भोजनं प्राप्यते, सर्वैः नागरिकैः वस्त्रमावासः च प्राप्यते, तादृशम् अन्वयः करणीयः. वस्त्रं प्राप्यते, सर्वैः नागरिकैः आवासः च प्राप्यते इति भिन्नभिन्नपदानां वाक्यानां सामूहिककरणम्. अत्र सामूहीकरणम् एकस्मिन् वाक्ये रचयामश्चेत् एवं लिखामः, तत्र दोषः नास्ति.
तत्त्ववचनं न करणीयं वा?
सर्वे भोजनं वस्त्रम् आवासश्च प्राप्यन्ते इति वदामः, तत्र दोषः प्राप्यन्ते एव भवेत् इति नियमः नास्ति. चकारस्य बलेन तत्र प्राप्यते इति भवति.
अच्छा, एकवचने अथवा बहुवचने? ओके, द्वयमस्ति चेत् द्विवचने और् एकवचने, लैक् देट् न? धन्यवादः.
अस्तु, अग्रे अभ्यासः 6200. अस्तु, अत्र द्वितीय अभ्यासं स्वीकुर्मः. आदौ लिखितानि वाक्यानि कर्मवाच्ये परिवर्तयत इति अस्ति. अस्तु, तर्हि वेङ्कटराव् महोदय, भवान्
महोदय. भक्तः देवं पूजयति, भक्तेन देवः पूज्यते, कर्मचारिणः कर्म कुर्वन्ति, कर्मचारिणभिः कर्म क्रियते, नेता राजधर्मान् पालयति, नेत्रा राजधर्माः पाल्यन्ते, विद्यार्थिनः गुरुं पूजयन्ति, विद्यार्थिभिः गुरवः पूज्यन्ते, राजा जनान् सेवते, राज्ञा जनाः सेव्यन्ते, अप्सराः इन्द्रं वन्दते, अप्सरसा इन्द्रः वन्द्यते.
धन्यवादः. अग्रे गीता भगिनि.
नमस्कारः महोदय.
नमस्कारः.
अधो लिखितानि वाक्यानि कर्तरी परिवर्तयत, नागरिकैः कर्तव्यानि आचर्यन्ते, नागरिकाः कर्तव्यानि आचर्यन्ति आचरन्ति आचरन्ति क्षम्यतां जनैः व्यवहारः क्रियते जनाः व्यवहारं कुर्वन्ति राज्येन अधिकाराः दीयन्ते राज्यम् अधिकाराः अधिकारान् दीयन्ते ददति
ददति वा
दीयन्ते
अधिकारः इति कृत्वा दीयन्ते राज्यं
ददाति सर्वैः भोजनं प्राप्यते सर्वे भोजनं प्राप्नुवन्ति गुरुभिः छात्राः पाठयन्ते गुरुवः छात्रान् पाठयन्ति
विद्वद्भिः
यज्ञः क्रियते विद्वांसः यज्ञं कुर्वन्ति
अस्तु अग्रे निर्दिष्टानि वाक्यानि पठत कर्मणि भूते लङ् सुन्दरमहोदय पठति वा
अथो निर्दिष्टानि वाक्यानि पठत बालेन पाठः अपठ्यत मया विद्यालयः अगम्यत छात्रेण लेखः अलिख्यत बालया मालया चित्रम् अदृश्यत गोपालेन विषयः अज्ञायत मात्रा पुत्रः अदाड्यत भवता नगरम् अभ्रम्यत जनैः वृक्षः अकर्त्यत भक्तेन देवः अनम्यत भिक्षुकेन धनम् अयाच्यत महिलया वस्त्रम् असीव्यत धनिकैः दानम् अधीयत यान्त्रिकेन यन्त्रम् अक्रियत कृषकेन भूमिः अकृष्यत क्रीडकेन कन्दुकम् अक्षिप्यत अग्रे
धन्यवादः
अग्रे एतानि वाक्यानि कर्मणि भूतकाले सन्ति आत्मनेपदिनः भूतकालरूपं स्मृतं कृतं चेत् भक्ति पठ्यते प्रभृतीनां कर्मणि प्रयोगानां भावे प्रयोगानां च भूतकालरूपम् आयासं विना प्राप्यते. यदा पठ्यते अपठ्यत अकारः योग धातुः योग यत अकारः योग पट् योग यत इति पट् धातु लिख्यते अलिख्यत अकारः योग लिख् योग यत अकारः योग धातु लिख् योग यत
अलिख्यत अपठ्यत अस्तु. आत्मनिपदे इदानीं वृति वर्तते इति क्रियापदं कर्तरि क्रियापदं तर्हि तत्र भूतकाललङ्लकारे रूपाणि कथं भवन्ति वसन् महोदय वदति वा
अवर्तत महोदय
अवर्तत
अवर्तेदाम् अवर्तन्त अवर्तथाः अवर्तेधाम् अवर्धत्वम् अवर्धे अवर्धावहे अवर्धामहे
अवर्ते अवर्तामहे वर्तामहे अत्र अवर्तत अवर्तेत
वर्ते वर्तावहि वर्तामहे न
अवर्तावहि वर्तामहे
वर्तावहे नास्ति न
महि 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 अवर्तामहे अवर्तत अवर्तेताम् अवर्तन्त एवमत्र पठ्य इति अस्ति अपठ्येत अपठ्येताम् अपठ्यन्त इति रूपाणि भवन्ति अग्रे अभ्यासं करोतु अग्रिमभ्यासम्
आं महोदय अधो लिखितानां वर्तमानकालरूपाणां भूतकालरूपाणि लिखत यथा ज्ञायते अज्ञायत आयोग ज्ञा धातु धातुः योग यत समानरीत्या लिखते लिख्यते अलिख्यत क्रीड्यते अक्रीड्यत रच्यते
त्रिवचनेषु
महोदय क्री क्रीड्यते अक्रीड्यत अक्रीड्येताम् अक्रीड्यन्त रच्यते अरच्यत अरच्येताम् अरच्यन्त नवरूपाणि अपि वदनीयं
किं प्रथमपुरुषपदं
पूर्यते अपूर्यत अपूर्येताम् अपूर्यन्त मार्ज्यते अमार्ज्यत अमार्ज्येताम् अमार्ज्यन्त कथ्यते अकथ्यत अकथ्येताम् अकथ्यन्त.
अस्तु
धन्यवादः.
अग्रे शान्तं
खण्ड्यते अखण्ड्यत अकण्ठ्येताम् अकण्ठ्यन्त ग्रियते अग्रियत अग्रियेताम् अग्रियन्त स्नायते अस्नायत अस्नायेताम् अस्नायन्त स्थीयते अस्थीयत अस्थीयेते अस्थीयेताम् अस्थीयन्त क्रियते अक्रियत अक्रियेताम् अक्रियन्त पीयते अपीयत अपीयेताम् अपीयन्त धन्यवादः
दीपक महोदय
जी महोदय अधोलिखितक्रियापदानां वर्तमानभूतयोः कर्तरिकर्मणि च रूपं लिखत वर्तमानकर्तरि उदाहरणं पठति वर्तमानकर्मणि पठ्यते भूते कर्तरि अपठत् भूते कर्माणि अपठ्यत द्वितीय लिखति कर्मणि वर्तमानकर्मणि रूपं लिख्यते भूते कर्तरि अलिखत् भूते कर्मणि अलिख्यत अलिख्यत अलिख्येताम् अलिख्यन्त क्रीडति वर्तमान कर्मणि क्रीड्यते भूते कर्तरि अक्रीडत् भूते कर्मणि अक्रीड्यत् 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 अक्रीड्येताम् अक्रीड्यन्त गच्छति गच्छति वर्तमान कर्मणि गम्यते भूते कर्तरि अगच्छत् भूते कर्मणि अगम्यत अगम्यत अगम्येताम् अगम्यन्त क्षालयति क्षालयति वर्तमानकर्मणि वर्तमानकर्मे क्षालयति क्षाल्यते भूते कर्तरि क्षाल्यते अक्षालयत् भूते कर्मणि अक्षाल्यत अक्षाल्यत अक्षाल्येताम् अक्षाल्यन्त
पाठयति पट् धातु वर्तमानकर्मणि पाठ्यते भूते कर्तरि अपाठयत् भूते कर्तरि सोरि भूते कर्मणि विल् बि अपाठयत् अपाठयताम् अपाठयत् यन्त अपाठयन्त then janati
punah vadatu punah vadatu
apatayat apatayat apatayat
apatayat uskar kartari kal
apatayat apatayat ha apatayat kartari ha apatayat apatayatam bhute karmani
karma ekachana कर्मणि वर्तमानकालकर्मणि वदतु
वर्तमानकालकर्मणि पाठयते
पाठयति वा
वर्तमकर्मणि न महोदय
पाठ्यते
पाठ्यते सोरि क्षम्यतां पाठ्य हा तदेव उक्तवती प्रथम पाठ्यते हा देन् अपाठयत् विल् बि भूते कर्तरि
अस्तु कर्मणि
कर्मणि अपाठयत् अपाठय अपाठयेत् अपाठयेताम् अपाठयन्
पाठयत् अपाठ्यत
अपाठ्यत उपवि अपाठ्यत हा अपाठ्यत अपाठ्यताम् अपाठ्यन्
अपाठ्येताम्
अपाठ्यन्त क्षम्यता अपाठ्यत अपाठ्यताम् अपाठ्यतान् अपाठ्यन्त जानाति
अत्र प्रथमं भूते कर्तरि भवति प्रथमं भूते कर्तरि भवति
ओके दोण्डु कर्तरि
प्रथमं कर्तरि भवति
जानाति ज्ञादातु ज्ञायते
न भूते कर्तरि वदतु कर्तरि किं भूतकाले वदतु
ओके अजानात् अजानात्
अजानात् वर्तमानकर्मणि
अजानात् न जानात् जनात् जानात् न
जानात् अजानात्
अजानात् हा हा
वर्तमानकर्मणि वर्तमाने कर्मणि
वर्तमानकर्मणि ज्ञायते
ज्ञायते भूते कर्मणि
भूते कर्मणि विल् बि अन्यायत अन्यायेताम् अन्यायन्त
करोति भूते कर्तरि
भूते कर्तरि ओके करोति विल् बिकम् अकरोत्
अकरोत् भूते कर्मणि वर्तमानि
वर्त क्रियते
क्रियते भूते कर्मणि
अक्रियत अक्रियेताम् अक्रियन्त
नयति
नयति अनयत भूते कर्तरि कर्मणि सारि कर्तरि कर्तरि सारि क्षम्यता भूते कर्तरि अनयत
एण्ड्
अनयत् देन् क्षम्यता महोदय नीयते विल् बि वर्ते कर्मणि ओके and aniyata aniyetam aniyanta then shrunoti shrudatu
niyata va
aniyata aniyata
niyata va
na aniyata
aniyata vartamana karmani
vartamana karmani will be niyate
niyate va
नयति न नीयते
नीयते
नीयते नीयते
नीयते नीयते इति वदति भवति
नीयते ओके नीयते ओके क्षम्यतां नीयते हा देन् भूते कर्तरि विल् बि अनयत नयत् अनयत् एण्ड् अनीयत अनीयताम् अनीयन्त शृणोति श्रुदातु भूते कर्तरि युवन् अशृणोत् देन् कर्तरि विल् बि श्रूयते एण्ड् अश्रूयत अश्रूयताम् अश्रूयन्त समीचीनं वा
अग्रे सुदृशं
गृह्णाति
कर्तरि भूते कर्तरि
अगृह्णात्
अगृह्णात्
वर्तमानकर्मणि
कर्मणि
गृह्ण्यते गृह्णे गृह्ण्यते भूते कर्मणि गृह्ण
वर्तमानकर्मणि प्रथमं वदतु भूते कर्मणि प्रथमकर्मणि प्रथमं समीचीनतया न उक्तवान्
गृह्णीयते
न नास्ति
नास्ति
अस्तु वेङ्कटराव् महोदय सायं
गृह्यते वर्तमानकर्मणि गृह्यते
गृह्यते गृह्यते
गृह्यते गृह्यतः गृह्यत
न न गृह्यत अगृह्यत
अगृह्यत भूते कर्तरि भूते कर्मणि अगृह्यत
भूते भूते कर्तरि भवान् उक्तवान् खलु अगृह्णात् इति उक्तवान्
अगृह्णात् सो भूते कर्मणि अगृह्यत अगृह्यताम् अगृह्यन्त
अग्रे जिग्राति जिग्राति
अजिग्रात् वर्तमानकर्मणि जिग्रत वर्तमान अग्र जिग्रते
घ्रियते इति भवति
जिग्रयते
घ्रा इति धातु घ्रियते इति भवति
महोदय ग्रा अपवादः ग्रायते
भवति
ग्रा अपवादः
ग्रायते
ग्रायते
वा सारि ग्रायते अपवादः
ग्रायते
ग्रायते वर्तमानकर्मणि
ग्रायते
अग्रायत अग्रायेताम् अग्रायन्त पश्यति
पश्यति कर्तरि भूते कर्तरि
पश्यति अपश्य वर्तमानकर्मणि दृश्यते
दृश्यते
अदृश्यत अदृश्येताम् अदृश्यन्त स्पृशति
स्पृशति
स्पृशति अस्पृशत् स्पृश्यते अस्पृश्यत अस्पृश्येत
अस्पृश्यन्त हरति
हरति आहरयत् महोदय
आहरत्
अहरत्
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 धातु
हृत्
हृ धातु तर्हि किं भवति ह्रस्व ऋकारः अस्ति ह्रस्व ऋकारः अस्ति चेत् किं भवति न न ह्रि इति भवति ऋकारस्य स्थाने रि ह्रि ह्रियते
ह्रियते
ह्रियते न ह्रियते
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 न ह्रियते
ह्रियते ह्रियत ह्रियते अह्रियत अह्रियेताम् अह्रियन्त
अस्तु समीचीनं सुन्दर महोदय धरति
धरति दृ धातु अधरत्
न न अधरत्
अधरत्
भूते कर्तरि
भूते कर्तरि वर्तमानकर्मणि ध्रियते
ध्रियते
अध्रियत अध्रियेताम् अध्रियन्त अध्रियन्त गायति गा दातु
न न गै इति दातु
क्षम्यतां गै इति दातु अगायत् अगायत् भूते कर्त्रि गायते वा वर्त वर्तकर्मणि
न न न प्रा गा अस्ति गीयते इति भवति
क्षम्यतां गीयते अगीयते आं महोदय
तत्र दा धा मास्ता गा गा इत्युक्ते गायति गा पापि पिबति भूमास्ता गापा जहाति हा एतेषां धातूनाम् ई इति भवति गीयते स्थीयते पीयते इति भवति
अवगतं महोदय धन्यवादः अगीयते तत्र गीयते अगीयत अगीयेताम् अगीयन्ते
गीयन्त
अगीय क्षम्यताम् अगीयन्त ध्यायन् ध्यायति
ध्यायति दै इति दातु
दै इति दातु अध्यायत्
अध्यायत्
अध्यायत् इति भूते कर्त्रि अद्य दीयते
दैधा इति भवति धायते
दीयते
धायते इति भवति
धायते
तत्र यथा पूर्वम् उक्तं तत्र न अयं धातु अत्र नास्ति धै इति धातु तत्र नास्ति इति कृत्वा तत्र धी इति न भवति धा इति एव भवति
ध्यायते अध्यायत अध्यायेताम् अध्यायन्त गणयति
गणयन्त
गण्धातु अगणयत् भूते कर्त्री गणयते
गण्यते
गण्यते कवितां गण्यते वर्तमानकर्मणि गण्यते अगण्यत अगण्येताम् अगण्यन्त क्रीणाति अक्रीणत् इति
अक्रीणात्
अक्रीणात् अक्रीणात् भूते कर्त्रि वर्तमानकर्मणि क्रीडातु
क्री इति धातु तर्हि क्रियोगः योग या योगः ते
क्रियोग यकारः या योग ते
ते
क्री क्रियते
क्रियते क्रियते न क्रियते
क्रियते क्रियते अक्रियत अक्रिय अक्रियेताम् अक्रियन्त
अक्रियत अक्रियेताम्
अक्रियेताम् अक्रियन्त
अस्तु द्रव्यते प्रमुख
अधो निर्दिष्टवाक्यानि भूतकाले लिखत बालेन ग्रन्थः पच्यते बालेन ग्रन्थः अपच्यत तेन गीतं गीयते तेन गीतम् अगीयत तया श्लोकः स्मर्यते तया श्लोकः अस्मर्यत मया कार्यं क्रियते मया कार्यम् अक्रियत भवता वाक्यं लिख्यते भवता वाक्यम् अलिख्यत ग्रन्थकारेण ग्रन्थः रच्यते ग्रन्थकारेण ग्रन्थः अरच्यत
अस्तु
धन्यवादः
कथाकारेण कथा श्राव्यते कथाकारेण कथा अश्रावयत् अश्रावयत चालकेन यानं चालयते चालकेन यानं अचालयत बालकेन जलम्
पुनः वदतु
चालकेन यानम् अचाल्यत बालकेन जलं पीयते बालकेन जलम् अपीयत महिलया चित्रं रच्यते महिलया चित्रम् अरच्यत अध्यक्षेण सभा भूष्यते अध्यक्षेण सभा अभूष्यत धन्यवादः
भूष्यते अलङ्कारं करोति तदेव वा
सभा अत्र अलङ्कारं करोति इत्युक्ते अध्यक्षेण सभा भूष्यते इत्युक्ते सामान्य वदामः खलु अत्र किं वदामः अत्र मञ्चम् अलङ्करोति इति वदामः अत्र अतिथिना अतिथिः मञ्चम् अलङ्करोति इत्युक्ते अत्र तस्य सान्निध्येन शोभते इति अर्थः मञ्चः शोभते इति अर्थः
अध्यक्षेण
भूषति दातु भूषयन् भूषयति इति भवति अध्यक्षः सभां भूषयति अस्तु अग्रे गीता भगिनि
सेवकेन प्रकोष्ठः मार्ज्यते सेवकेन प्रकोष्ठः अमार्जयत् अमार्जयत मया वस्त्रं क्षाल्यते मया वस्त्रम् अक्षाल्यत देवदत्तेन वेदः ज्ञायते देवदत्तेन वेदः अज्ञायत तया चित्रं दृश्यते तया चित्रम् अदृश्यत् अदृश्यत भवता धनं धनं दीयते भवता धनम् अधीयत
आं महोदय कर्मणि प्रयोगे परिवर्तयत उदाहरणं बालः ग्रन्थम् अपठत् बालेन ग्रन्थः अपठ्यत सः शिलाम् अक्षिपत् तेन शिला अक्षिप्यत एषा भित्तिम् अस्पृशत् एतया भित्तिः अस्पृश्यत भवान् तात्पर्यम् अजानात् भवता तात्पर्यः अज्ञायत दुष्टः सज्जनम् अपीडयत् दुष्टेन सज्जनः अपीड्यत सेवकः सस्यम् असिञ्चत् सेवकेन सस्यम् असिञ्च्यत
असिञ्चयत् असिञ्चयत् सिञ्च्यत असिच्यत
असिच्यत असिच्यत असिच्यत क्षम्यताम्
तात्पर्यम् अपुंसकलिङ्गे अस्ति तात्पर्यम् अजानत अज्ञायत तात्पर्यम् अज्ञायत
अस्तु महोदय धन्यवादः
न श्रूयते उच्चैव
अग्निना गृहम् अदह्यत अग्निः गृहम् अदह्यत
किं वदति भवान् न श्रूयते प्रथमं वाक्यं पठतु अग्निः गृहम्
अग्निः गृहम् अदहत् अग्निना गृहम् अदह्यत
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 अदह्यत धातु दश अदस् अदस्य अदह्यत
अग्निः गृहम् अदस्यत अदस्यत्
अदहत् अस्तु भवतु अग्रे
चोरः धनम् अचोरयत् चोरेण धनम् अचोरयत् सा वस्त्रम् अस्थापयत् सा तया वस्त्रम् अस्थाप्यत कृषकः धेनुम् अपालयत् कृषकेण धेनुः अपाल्यत ग्रामीणाः सस्यम् अपोषयन् ग्रामीणैः सस्यम् अपोष्यत
ग्रामीणाः इति कीदृशं ग्रामीणः ग्रामीणैः समीचीनं
ग्रामीणाः
ग्रामीणैः सस्यं पोष्यत पोष्यत
अपोष्यत
समीचीनम् अस्तु अग्रे नालबन्दि
आं महोदय गुरुः धर्मम् अबोधयत गुरुणा धर्मः अबोधयत
अबोधयत वा
हा अबोधयत न अबोधयत
कर्मणि वदति वा कर्तरि वदति वा
गुरुः धर्मम् अबोधयत् करेक्ट् दट् इस् द वाक्यं नो सो नौ ऐ हाव् टु मेक् इट् इन् टु कर्मणि नो एण्ड् लङ्लकार नो सो गुरुणा धर्मः अबोधयत् न अपाठयत् न
अबोध्यत
अबोधयत
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 न इति वक्तव्यम्
अबोध्यत अबोध्यत क्षम्यताम् ऐ आर् नाट् गिविङ्ग् मी सपोर्ट् टुडे ओके मार्जारः मूषकम् अखादत मार्जारः विल् बिकम् मार्जारेण मूषकः अखाद्यत करेक्ट् अहं दुर्भाषम् अत्यज्यम् अहं विल् बिकम् मया दुरभ्यासः अत्यज्यत भस्वामी कष्टम् असहत गृहस्वामिना कष्टम् असहय भवान् असहयत् गृहस्वामिना समीचीनं
गुरुस्वामिना
कष्टम् असह्यत सह्यत ओके क्षम्यता सह्यत
कष्टम्
नपुंसकलिङ्गं
भवान् देवम् अवन्दत भवता देवः अवन्द्यत समीचीनं वा क्षम्यतां
महोदय
वेदना बहु अस्ति महोदय
किं चिन्ता सुन्दरेश महोदय
अधो लिखितानि रूपाणि स्मरत कर्मणि भूते रूपम् अपठ्य अपठ्येताम् अपठ्यन्त अरच्यत् अरच्येताम् अरच्यन्त अधीयत् अधीयेताम् अधीयन्त अखाद्यत् अखाद्येताम्
अखाद्यत् इति अस्ति वा अखाद्यत अगीयत अरक्ष्यत
अखाद्यत अखाद्येताम् अखाद्यन्त अश्रूयत अश्रूयेताम् अश्रूयन्त
पञ्चवाक्यानि करोतु अग्रे
अभ्यासः अधोलिखितानि क्रियापदानां द्विवचनं बहुवचनरूपाणि लिखत अदुह्यत अदुह्येताम् अदुह्यन्त अखन्यत अकन्येताम् अकन्यन्त अक्षिप्यत अक्षिप्येताम् अक्षिप्यन्त अनृत्यत अनृत्येताम् अनृत्यन्त अमार्ज्यत अमार्ज्येताम् अमार्ज्यन्त
अग्रे अगण्यत
अगण्यत अगण्येताम् अगण्यन्त
अस्तु अग्रे सुन्दर महोदय
एकचन अचाल्यत अचाल्येताम् अचाल्यन्त अपूज्यत अपूज्येताम् अपूज्यन्त अबुध्यत अबुध्येताम् अबुध्यन्त अगस्यत अगस्येताम् अगस्यन्त अचिन्त्यत अचिन्त्येताम् अचिन्त्यन्त धन्यवादः
अधो निर्दिष्टक्रियापदानां यथोदाहरणं कर्मणि समानवचने रूपाणि लिखत उदाहरणम् अपठत् अपच्यत अलिखताम् अलिख्येताम् अकुर्वन् अक्रियन्त अनृच्यत् अनृच्यत अगच्छत् अगम्यत अचलताम् अचल्येताम् अपश्यन् अदृश्यन्त अभवत् अभूयत
समीचीनम् अभूयत अस्तु शान्तभगिनी
अहस्तताम् अस्येताम् अकरोत् अक्रियत अगदन् गदन्
गद् धातु
धातु अगद्यत अगद्यन्त अगद्यन्त अखण्ड्यताम् खण्ड् धातु अखण्ड्येताम् अक्षिपत् अक्षिप्यत
पुनः अस्तु
अक्षिपत् अक्षिपत् अक्षिप्यत गद् इत्युक्ते
वदति इत्यर्थः
गद्दि
वदति ददति ददति निगदति ददति गदति अग्रे दशं महोदय
आं महोदय अमार्जयन् अमार्जन्त अचुम्बताम् अचुम्ब्येताम् अपिपत् अपीयत अकथयन् अकथ्यन्त अतिष्ठत् अतिष्ठताम् अतिष्ठ्येत् अतिष्ठेताम् पर्याप्तं वा
सा इति धातु तिष्ठति सा धातु
अस्तीयताम् अस्तीयताम् अस्तीयताम्
अस्तीयताम् दीपक महोदय
अपश्यत् अदृश्यत अकर्तयन् अकर्त्यन्त अच्युतत् धातु सः अच्युतत् च्युट् धातु
अच्युतत् अच्युतत्
अर्थात् किं महोदय
अनेकर्थः सन्ति मया एतावता एकवचनं षटि वर्षावरणयोः वर्ष अवरण आवरणयोः आवरणं कवर् वर्ष इत्युक्ते चुटति
अपश्येताम् अवसत् अव्यत्
अत्र वस् धातु न न उष्यते इति भवति वस्
उष्यते औष्यत
औष्यत भवति प्रायः सर्वे औषत समीचीनं
औषधं
सन्धि वृद्धिः भवति आयोगः ओ औ औषत औषत अस्तु अग्रे गीता भगिनी.
अस्तु महोदय. अकम्पत् अकम्पन्त अकम्पन्त अकम्प्यन्त
अकम्प्यन्त
अदशत् 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 अदश्यत् अदश्यत
अदश्यत
आच आचरताम् आचरताम्
आचरताम्
आचरताम् आचरताम् आचर्येताम् आचर्येताम्
आचर्येताम्
अपूरयत् अपूरयन् अपूर्यन् अपूर्यन्त अपूर्यन्त
अपूर्यन्त
देन् अबद् अबध्नात् 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 अबद् अबद् अबध्य अबध्यत अबध्य अबध्नात् बध्नात्
अबध्यत
अबध्यत ओके देन् ना वेर् मीन् दट् ना अबध्नात् बध्नाति अबध्नाति अबध्यति अबध्यत
अबध्यत
आम् महोदय. अबाथां बा इत्युक्ते किं महोदय?
प्रकाशते भाति
अबायताम् अबेथां देन् अनन्दत् अनन्दत् अनन्द्यत अनन्द्यत अयच्छन् अयच्छ is da dhatu, no, no, de?
Da.
Adiyata.
Adiyata.
No?
Ayachan.
Adiyata. Ayachan, okay. Adiyanta. Okay, adiyanta. Then, amarshayatam. Amarshayetam. Then,
मर्षयति
मर्षेतां इत्युक्ते किं
मर्षेतं टु एरेश्
मर्षतां
मर्षयति इत्युक्ते एरेश्
देन् अमुञ्चत् अमुच् अमुच्यत देन् अवर्षताम् अवर्षयेताम् अवर्ष धन्यवादः.
सन्देशं महोदय.
गतवान् महोदय.
अस्तु प्रायः गत सुन्दर महोदय.
नमस्कारः. अवर्षताम् अवर्षेताम् अवर्ष्यत अवर्षयेताम् अवर्षयेताम् अरोहणम्
मृष्यति धातु सहने इति अस्ति सेचने सहने टु टालरेट् टु फर्गिव् इति अस्ति मर्षव्यः फर्गिव् इति अर्थः मर्षयताम् इति भगिनी उक्तं दृश्य धातु स्वर्गे टॉलरेट
अवृष्येताम् अवृष्येताम् अरोहन्
एकक्षणं वर्षताम् वर्षताम् चित्र वृष्यति न भवति वर्ष्यते वर्षेताम् अवर्षेताम्
वर्षेताम् अरोहन् रुक्तात् वा महोदय रुक्तात् वा
रुक्
अरुह्यन्त क्षम्यताम् अरुह्यन्त अकस्यत् अकर्षत् अकर्षत अवमन् अवमन् मम दत्वा महोदय अवमन्
न न मण् इति न
मण् इति
अस्ति अस्ति मम् मम् दातु मम् इति दातु सत्यम्
वम् दातु
ममति
अवमन् अवमन्यन्त अवमन्यन्त
मन् अवम्यन्त
अवम्यन्त अवम्यन्त मकारः अशक्नोत् अशक्नोत्
शक्यते दातु
अशक्यत अशक्यत
अशक्यत समीचीनम् अस्तु
धन्यवादः
द्रष्टव्यामः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् शान्ति 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 अग्रिम अभ्यासमारभ्य अग्रिमवर्गे पठतु
धन्यवादः
धन्यवादः महोदय
शुभरात्रिः